ॐ सद्गुरुभ्यो नमः अस्य श्री केतुस्तोत्रमहामन्त्रस्य वामदेवर्षि अनुष्ठुप् छन्दः केतुर्देवता केतुप्रसादसिद्ध्यर्थे जपे विनियोगः। गौतम उवाच मुनीन्द्र सुततत्त्वज्ञा सर्वशास्त्रविशारदा सर्वरोगहरं ब्रूहि केदो स्तोत्रमनुत्तमम्। सूत उवाच शृणु गौतम वक्ष्यामि स्तोत्रमेतदनुत्तमम् गुह्याद्गुह्यतमम् केतो ब्रह्मणा कीर्तितम् पुरा आद्य करालवदनो द्वितीयो रक्तलोचनः तृतीयः पिङ्गलाक्षश्च चतुर्थो ज्ञानदायकः पञ्चम कपिलाक्षश्च षष्ठः कालाग्निसन्निभः सप्तमो हिमगर्भश्च धूम्रवर्णो अष्टमस्तथा नवम कृत्तकण्ठश्च दशमो नरपीडक एकादशस्तु श्रीकण्ठ द्वादशस्तु गदायुधः द्वादशैते महाक्रूरा सर्वोपद्रवकारका पर्वकाले पीडयन्ति दिवाकरनिशाकरौ नाम द्वादशकं स्तोत्रम् केतोरेतन्महात्मनः पठन्ति अन्वहम् भक्त्या तेभ्य केतु प्रसीदति कुलत्वधान्ये विलिखेत् षट्कोणम् मण्डलम् शुभम् पद्ममष्टदलम् तत्र विलिखेच्च विधानतः नीलम् खडम् च संस्थाप्य दिवाकरनिशाकरौ केतुम् च तत्र निक्षिप्य पूजयित्वा विधानता स्तोत्रमेतत् पठित्वा च ध्यायेत् केतुम् वरप्रदम् ब्रह्मणम् श्रोत्रियम् शान्तम् पूजयित्वा कुटुम्बिनम् केतो करालवक्त्रस्य प्रतिमाम् वस्त्रसंयुताम् कुम्भादिभिश्च संयुक्ताम् चित्राभारे प्रदापयेत् दानेनानेन सुप्रीतः केतो स्यात् तस्य सौख्यदः वत्सरम् प्रयतो भूत्वा पूजयित्वा विधानतः मूलमष्टोत्तरशतम् ये यजन्ति नरमोत्तमा दोषम् केतुप्रसादेन न कदाचित् भयम् भवेत्। श्रीकेतुस्तोत्रम् सम्पूर्णम्।